एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। निर्वाचनायोगेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः निर्वाचनस्य कृते आगामिनः फाल्गुन मासस्य विंशम् दिवसम् यावत् प्राप्ताष्टादश वर्ष वयस्केभ्यो जनेभ्य मतदानस्य व्यवस्थाम् कर्तुम् निर्णीतम् अस्ति। आगामिन फाल्गुन मासस्य विंशम् दिवसम् समय सीमाम् निर्धार्य गत मार्गशीर्ष मासस्य पञ्चम दिवसस्य अभ्यन्तरे संकलितानाम् मतदातृणाम् विवरणम् अद्यावधिकम् विधातुम् च उपवेशेन निर्णीतमस्तीति आयोगेन ह्य प्रकाशितायम् विज्ञप्तौ उल्लिखितम् वर्तते। मतदातृणाम् विवरणस्य आयोगस्य वेबसञ्जाले प्रकाशनानन्तरम् अस्यैव मार्गशीर्ष मासस्य षड्विंशम् दिवसम् यावत् मतदातृभिः नामावल्याम् विद्यमानाः त्रुटिः संशोधयितुम् नामावल्याम् प्रस्तुतस्य मिथ्याविवरणस्य कृते विरोधम् ज्ञापयितुम् एकस्यैव नाम्नः अनेकेषु निर्वाचनक्षेत्रेषु नाम्नः विद्यमानत्वे एकस्मिन्नेव स्थाने तस्य व्यवस्थापनम् कर्तुम् मृतानाम् नागरिकताम् त्यक्तवताम् च जनानाम् नाम्नाम् अपसारणम् विधातुम् च आयोगेन अनुरुद्धमस्ति। आयोगेन मतदातृनामावलिम् सुदृढाम् स्वच्छाम् विश्वसनीयाम् च विधातुम् मतदातृणाम् सम्बद्ध निकायानाम् च सक्रिय सहभागितायै अनुरुद्धम् वर्तते। नेकपा एमाले दलेन आगामिन्याः प्रतिनिधिसभायाः निर्वाचनस्य कृते समानुपातिक निर्वाचन प्रणाल्याम् भागम् ग्रहीतुम् ह्य निर्वाचनायोगे दलपञ्जीकरणाय निवेदनम् प्रस्तुतम् वर्तते। एमाले दलस्य केन्द्रीय निर्वाचनायोगस्य प्रमुख नीरज आचार्यः आयोगस्य कार्यवाहक प्रमुखायुक्तस्य रामप्रसाद भण्डारिणः समक्षम् दलपञ्जीकरणाय ह्य निवेदनम् हस्तान्तरितवान्। चतुस्त्रिंशता राजनीतिक दलैः दलपञ्जीकरणाय निवेदनानि ह्य प्रदत्तानि आसन्। अधुनावधि समग्रतः सप्तषष्ट्या दलैः निर्वाचनार्थं दलपञ्जीकरणं विहितमस्तीति आयोगस्य सहसचिवः यज्ञप्रसाद भट्टराई असूचयत्। समानुपातिक निर्वाचन प्रणाल्यां भागं ग्रहीतुम् इच्छुकैः राजनीतिक दलैः अद्य अपराह्नस्य चतुर्वादनं यावत् दलपञ्जीकरणाय निवेदनं प्रस्तोतुम् आयोगेन अनुरुद्धम् वर्तते। अत्रान्तरे नेकपा एमाले दलस्य वरिष्ठोपाध्यक्षेण ईश्वर पोखरेलेन दलस्य एकादशतमस्य राष्ट्रिय महाधिवेशनस्य सन्दर्भे स्वकीयम् अवधारणा पत्रम् प्रस्तुतमस्ति। अध्यक्षस्य ओलिनः समक्षम् प्रस्तुत्यै नीतम् अवधारणा पत्रम् पूर्वेद्युः अध्यक्षस्य ओलिनः समयाभावत् महासचिवस्य शंकर पोखरेलस्य समक्षम् प्रस्तुतम् आसीत्। अवधारणापत्रे दलस्य महाधिवेशने दलस्य कार्यक्रमाणाम् कार्यदिशायाः संगठनात्मकस्य सिद्धान्तस्य नेतृत्वस्य च विषयेषु विमर्शनाय याचना विहितास्ति। वरिष्ठोपाध्यक्ष पोखरेलः महाधिवेशने विमर्शनाय निर्मितम् अवधारणापत्रम् महाधिवेशनस्य विधानसत्रे प्रस्तुत्य प्रतिनिधीनाम् मध्ये विमर्शनाय वातावरणम् निर्मातुम् अवधारणापत्रे अध्यक्षम् ओलिनम् अनुरुद्धवान् अस्ति। वरिष्ठोपाध्यक्षेण पोखरेलेन एमाले दलस्य एकादशतमे महाधिवेशने अध्यक्षपदस्य प्रत्याशिताम् प्रस्तोतुम् घोषणा विहितास्ति। नेकपा एमाले दलस्य एकादशतमस्य राष्ट्रिय महाधिवेशनस्य पूर्वकार्याय संघटितायाः व्यवस्थापन समितेः उपवेशे महाधिवेशनस्य विस्तृत व्यवस्थापनस्य सहभागितायाः विषये विमृष्टम् अस्ति। ललितपुरस्य च्यासलवर्तिनी दलकेन्द्रीय कार्यालये महासचिवस्य शंकर पोखरेलस्य अध्यक्षतायाम् पूर्वेद्युः उपविष्टे उपवेशे महाधिवेशनस्य कार्यक्रमतालिकायाः आवश्यक संरचनागत पूर्वकार्यस्य च विषयेष् विमृष्टमस्तीति संघटन विभागस्य सचिव माधव ढुंगेलः असूचयत्। एमाले दलस्य महाधिवेशनम् अस्यैव मार्गशीर्ष मासस्य सप्तविंशात् दिवसात् एकोन त्रिंशम् दिवसम् यावत् काष्ठमण्डपे आयोक्ष्यते। महाधिवेशनम् सफलम् विधातुम् विभिन्नाः त्रयोदश समितयः संघटिताः वर्तन्ते। प्रधानमन्त्री सुशीला कार्की वैदेशिक वृत्त्युपार्जन व्यवसायस्य अव्यवस्थाम् नियन्तुम् अन्तर्गतस्य निकायान् निर्दिशति। विदेशान् गत्वा दुःख प्राप्तेः वञ्चनस्य सर्वकारेण उद्धारकरणस्य च अवस्थायाः निरोधनत्वेन प्रणालीं स्थापयितुं प्रधानमन्त्रिणा कार्किणा श्रममन्त्रालयस्य परराष्ट्रमन्त्रालयस्य विधिमन्त्रालयस्य वैदेशिक वृत्त्युपार्जन विभागस्य च अधिकारिणः निर्दिष्टाः वर्तन्ते। ह्यः प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये श्रम समस्याया विषये विमर्शनस्य क्रमे प्रधानमन्त्री कार्की कुवेत देशे असहायावस्थायां स्थितानां महिलानां शीघ्र उद्धाराय प्रयत्नं विधातुमपि निर्दिष्टवती अस्तीति प्रधानमन्त्रिणः नैज सचिवालयेन ज्ञापितं वर्तते। सर्वकारेण जेएनजी वर्गस्य यूनां प्रदर्शनस्य क्रमे आहतानां जनानां कृते शिक्षा स्वास्थ्ययोः वृत्त्युपार्जनस्य च व्यवस्थायाः कार्यं विधीयते। ह्यः उपविष्टेन मन्त्रिपरिषदः उपवेशेन गत भाद्रस्य त्रयोविंशे चतुर्विंशे च दिवसयोः जेएनजी वर्गस्य यूनां प्रदर्शनस्य क्रमे आहतेभ्य अपाङ्गतायुतेभ्य च जनेभ्य सहयोगं प्रदापयितुम् एतद्विक्रमवर्षीय जेएनजी आहत सहायता कार्यविधिं स्वीकर्तुं निर्णीतमस्तीति संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च जगदीश खरेलः असूचयत्। उपवेशेन गत विक्रमवर्षस्य चैत्रमासस्य पञ्चदशे दिवसे काष्ठमण्डपस्य तीनकुने स्थाने विहितस्य प्रदर्शनस्य क्रमे मृतं पत्रकारं सुरेश रजकं राज्यस्य पक्षत हुतात्मजनम् उद्घोष्टुं च निर्णीतं वर्तते। एवमेव उपवेशेन वर्तमानार्थिक वर्षस्य कृते कृषकैः उत्पादितानाम् इक्षूणां न्यूनतम क्रयण मूल्यं प्रति क्विंटल परिमितं 20+ 600 रूप्यकाणि निर्धारितानि वर्तन्ते। एवमेव उपवेशेन विभिन्न दश जनपदानां विपन्न परिवाराणां सूची स्वीकृता च अस्तीति सर्वकारस्य प्रवक्ता खरेलः असूचयत्। झापा जनपद वर्तिनी भद्रपुर प्रादेशिक चिकित्सालय ह्यस्तन दिवसात नवजात शिशु सम्बद्धा सघनोपचार कक्ष सेवा सञ्चालितास्ति। चिकित्सालयस्य प्रमुखस्य डाक्टर संजय कुमार गुप्ता इत्यस्य अनुसारेण द्वादश वर्षेभ्य पूर्वम् आवश्यकानि उपकरणानि आनीतानि सन्त्यपि जनशक्तेः अभावात् अधुनावधि सेवा प्रारब्धुं सक्ता नासीत्। सर्वोच्च न्यायालयेन नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशक पदे हितेन्द्र देवसाक्यं पुनस्थापयितुं परमादेश प्रदत्तोऽस्ति। न्यायाधीशयो नहकुल सिवेदिनः श्रीकान्त पौडेलस्य च न्यायपीठेन साक्य इत्यमुं विद्युत प्राधिकरणस्य कार्यकारी निर्देशक पदे पुनस्थापयितुम् आदिष्टमस्ति। सर्वकारेण गताश्विन मासस्य पञ्चमे दिवसे साक्यस्य कार्यकारी निर्देशक पदात् जलोर्जसा योगे स्थानान्तरणं विधाय मनोज सिलवाल इत्ययं कार्यकारी निर्देशक पदे नियुक्तः आसीत्। मानवाधिकाराणां रक्षायै सर्वकारः पुनश्रूयताम्। 77वां अन्तर्राष्ट्रिय मानवाधिकार दिवसस्य सन्दर्भे 17 मानवाधिकार राष्ट्रिय मामेला ह्यः काष्ठमण्डपे प्रारब्धास्ति। राष्ट्रिय मानवाधिकारायोगस्य नागरिक समाजस्य विभिन्नानां पञ्चविंशत्युत्तरैकशतस्य सर्वकार्याणां सर्वकारीयेतर संघ संस्थानां च आयोजनायां जायमानायां राष्ट्रिय मानवाधिकार मेलायां ह्यो गृहमन्त्री ओमप्रकाश अर्याल महिला बालबालिकानां सीमान्तकृत समुदायानां च मानवाधिकाराणां रक्षायै सर्वकार प्रतिबद्धोऽस्तीति उदैरयत्।